सर्वेभ्यो नमः. गतवर्गे वयम् आत्मनिपदीधातूनाम् अपि च परस्मैपदीधातूनां लकारस्य अभ्यासं कृतवन्तः. तत्र लोट् लकारः इति विषयः आसीत्. किन्तु अद्य नूतनविषयः भवति. अद्यतनविषयः अस्ति सङ्ख्याः इति. तत्र गीतासोपाने पेज् पुटसङ्ख्या 58 तत्र अस्माकं विषयः अस्ति. तत्र सङ्ख्या तु बहुत्र भवति. सङ्ख्यया विना वयं किमपि लोके न कर्तुं शक्नुमः खलु. अतः सङ्ख्या इति विषयः बहु तस्य प्रामुख्यत्वमस्ति. तत्र सङ्ख्यायाः रूपं कथं भवति अपि अग्रे गत्वा इदानीं न किन्तु गीतासोपाने द्वितीयभागे वयं सङ्ख्यायाः विभक्तिः अपि कीदृश ते कथं तस्य रूपं किम् एतत् सर्वं पश्यामः. किन्तु अत्र लघुपरिचयः अस्ति सङ्ख्यायाः विषयस्य. तद् इदानीं पश्यामः. तत्र तत्र किं कुर्मः, अत्र केवलम् एकवारं सङ्ख्या इति एकवारं पठामः. तत्र प्रायशः तत्र मधुसूदन महोदय, तत्र पुटसङ्ख्या 58 अष्टपञ्चाशत्तमे पुटे तत्र एकतः विंशतिपर्यन्तम् एकवारं पठति पठतु महोदय.
हरि ओं महोदय, अहं भानुचैतन्य अस्मि.
भानुचैतन्य महोदय नमस्कारः.
श्रोतुं
शक्यते महोदय?
हा श्रोतुं शक्यते. हा श्रूयते महोदय. किं महोदय भानुचैतन्य महोदय, किम्
एतत् डेटा इण्टर्नेट् अस्ति महोदय? दूरवाण्यां भग्नः जातः.
अस्तु अस्तु अस्तु. हा हा श्रूयते महोदय. वयं पुटसङ्ख्या 58 मध्ये स्मः. सङ्ख्या इति
धन्यवादः.
अस्तु मधुसूदन महोदय.
उच्चैः पठत जानीत च. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः.
हा इति अस्तु. अग्रे वेणुगोपाल महोदय, एकविंशतिपर्यन्तं चत्वारिंशत् एकविंशतितः चत्वारिंशत् पर्यन्तम्.
अस्तु महोदय. एकविंशतिः, द्वाविंशतिः, त्रयोविंशतिः, चतुर्विंशतिः, पञ्चविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, नवविंशतिः, त्रिंशत्, एकत्रिंशत्, द्वात्रिंशत्, त्रयत्रिंशत्,
चतुर्त्रिंशत्,
त्रयस्त्रिंशत्, चतुस्त्रिंशत्, पञ्चत्रिंशत्, षट्त्रिंशत्, सप्तत्रिंशत्, अष्टात्रिंशत्, नवत्रिंशत्, चत्वारिंशत्.
हा धन्यवादः महोदय. अस्तु अग्रे शोभा भगिनी, अग्रे एकचत्वारिंशत्तः षष्टिः पर्यन्तम्.
एकचत्वारिंशत्, द्विचत्वारिंशत्, त्रिचत्वारिंशत्, चतुश्चत्वारिंशत्, पञ्चचत्वारिंशत्, षट्चत्वारिंशत्, सप्तचत्वारिंशत्, अष्टचत्वारिंशत्, नवचत्वारिंशत्, पञ्चाशत्, एकपञ्चाशत्, द्विपञ्चाशत्, त्रिपञ्चाशत्, चतुष्पञ्चाशत्, पञ्चपञ्चाशत्, षट्पञ्चाशत्, सप्तपञ्चाशत्, अष्टपञ्चाशत्, नवपञ्चाशत्, षष्टिः.
हा धन्यवादः भगिनी. हा नरेश महोदय अग्रे. एकषष्टिः तः अशीतिः पर्यन्तम्.
एकषष्टिः, द्विषष्टिः, त्रिषष्टिः, चतुष्षष्टिः, पञ्चषष्टिः, षट्षष्टिः, सप्तषष्टिः, अष्टषष्टिः नवषष्टिः सप्ततिः एकसप्ततिः द्विसप्ततिः त्रिसप्ततिः चतुस्सप्ततिः पञ्चसप्ततिः षट् सप्ततिः सप्तसप्ततिः अष्टसप्ततिः नवसप्ततिः अशीतिः।
धन्यवादः महोदय। गीताञ्जलि भगिनी अग्रे एकाशीतिः तः शतं पर्यन्तम्।
एकाशीतिः द्वयशीतिः त्र्यशीतिः चतुर्शीतिः पञ्चाशीतिः षडशीतिः सप्ताशीतिः अष्टाशीतिः नवाशीतिः नवतिः एकनवतिः द्विनवतिः त्रिनवतिः चतुर्नवतिः पञ्चनवतिः षण्णवतिः सप्तनवतिः अष्टनवतिः नवनवतिः शतम्।
हा, धन्यवादः भगिनी। अस्तु, तत्र एकवारं सर्वम् इदानीं श्रुतवन्तः, एकतः शतपर्यन्तं सङ्ख्याः, तत्र किञ्चित् पश्यामः रूपाणि कीदृशानि इति। तत्र एकतः दशपर्यन्तं तु सर्वे जानीमः, प्रायशः एकादशतः पञ्चदशपर्यन्तमपि जानीमः, तिथिः इति विषये आगच्छति खलु, त्रयोदश चतुर्दश इति। तदनन्तरं प्रायशः तादृशः सङ्ख्याः प्रसिद्धाः न सन्ति इति मन्ये। किन्तु तत्र किं किं दृश्यते, आङ्ग्लभाषायां यद् वदामः पेटर्न् इति, तत्र किं किं दृश्यते, कोऽपि वदति वा?
हा महोदय,
रघुपतिमहोदय वदतु।
एकं तु अत्र द्वादश अस्ति, द्वादश अपि अस्ति, अतः द्वाविंशति, द्वात्रिंशत्, नन्तरं सर्वं द्वि भवति, द्वि, एकनिमिषं, द्विचत्वारिंशत्, द्विपञ्चाशत्, द्विषष्टिः, द्विसप्ततिः, अपि द्वयशीति, अत्र सन्धि भवति, द्वि एव अस्ति, द्विअशीतिः द्वयशीतिः भवति, अपि च द्विनवतिः, अत्र द्विनवति, अत्र
तादृश द्विसप्ततिः तादृशमेव द्विनवतिः,
द्वि द्विवेव, अपि च द्वाविंशत्, अपि च त्रयोदशः अस्ति, त्रयोदश अस्ति, त्रयोविंशति अस्ति, अनन्तरं त्रयस्त्रिंशत्, त्रयस्त्रिंशत्, अपि त्रिचत्वारिंशत्, त्रिपञ्चाशत्, अनन्तरं त्रि भवति, त्रिषष्टिः, त्रिसप्ततिः, त्रिअशीतिः, त्रयशीतिः भवति, अस्ति, अपि च त्रिनवतिः,
त्रिनवतिः इति। अस्तु, समीचीनं महोदय, समीचीनं। अस्तु, तत्र यत् रघुपतिमहोदय उक्तवान् तदेव अन्य कोऽपि वदतु, अवगमनं भवति चेत्, कः अवगतवती अथवा अवगतवान् कोऽपि वदतु।
अहं वदामि महोदय।
वेणुगोपाल् महोदय वदतु महोदय। अस्तु,
त्रिंशत् आरभ्य नव पञ्चाशत् पर्यन्तं षट् इति अन्तं भवति, अनन्तरं न
किं किं किल
त्रिंशत्
त्रिंशत् सत्यं त्रिंशत्
त्रिंशत् आरभ्य नवपञ्चाशत् पर्यन्तं अन्तिम पदं षट् इति अस्ति भवति
इति अस्ति। समीचीनं, सत्यं सत्यं। तत्र तत्र किमर्थं तत्र पश्यामः, तत्र पञ्चत्रिंशत् अपि त्रिंशत्, तत्र रूपसमानं किमर्थम् अस्ति, रूपसमानम् अस्ति वा त्रिंशत् पञ्च पञ्चत्रिंशत्, तत्र अन्ते किं भवति, षत् एव
भवति,
हा अन्ते षत् एव भवति, हा अस्तु। तत् तत्र एकः अंशः अस्ति, तत् किञ्चित् अग्रे पश्यामः, किन्तु यत् वेणुगोपाल् महोदय यत् भवान् उक्तवान् तत्तु समीचीनम् अस्ति, किन्तु तस्य पूर्वं यत् रघुपतिमहोदय उक्तवान् तद् किम् अस्ति इति पुनरेकवारं कोऽपि वदति वा
महोदय?
वदतु महोदय,
द्वादश इति, तदनन्तरं द्वाविंशतिः, तदनन्तरं द्वात्रिंशत्, एतत् पदैः पूर्वं द्वा इति आरम्भः,
तत्र द्वा इति अस्ति, द्वा इति अस्ति, समीचीनं। हा
किन्तु द्विचत्वारिंशत्, द्विपञ्चाशत्, तत्र पूर्वं तु द्वा अस्ति, द्वात्रिंशतः, इदानीं तु द्विपञ्चाशत्, द्विषष्टिः, द्विसप्ततिः अस्ति महोदय।
समीचीनं समीचीनम् अस्तु, हा समीचीनं, हा अत्र अतः पुनरेकवारम् एतदेव वदामः, तत्र यत्र सङ्ख्या द्वा अधिक, दश वा विंशति वा, तत्र दशेन गच्छामश्चेत् किं भवति, दश, विंशतिः, त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टिः, सप्ततिः, अशीतिः, नवतिः, शतम् इति भवति, किन्तु तस्य अधिकं, द्वि अधिकं यदि पश्यामः तत्र किं भवति, द्वादश, द्वाविंशतिः, द्वात्रिंशत् इति भवति, किन्तु तदनन्तरं चत्वारिंशत् अनन्तरं किं भवति, द्विचत्वारिंशत्, द्विपञ्चाशत्, द्विषष्टिः, द्विसप्ततिः, अपि द्वि योगः अशीतिः, द्वयशीतिः इति भवति, सन्धिः तत्र कार्यमस्ति अत्र इति कृत्वा, अपि तदनन्तरं द्विनवतिः, हा तत्र चत्वारिंशत् पूर्वं किं भवति, द्वा इति अस्ति, चत्वारिंशत् अनन्तरं किं भवति, द्वि इति भवति। एतद् एषः एकः अंशः रघुपतिमहोदयेन एकः अंशः, अन्यः अंशः कः
महोदय? तादृश एव त्रयोदश अपि,
हा त्रयोदश अपि तादृश एव अस्ति, त्रयोदश, त्रयोविंशतिः, त्रयस्त्रिंशत् इति अस्ति, किन्तु तदनन्तरं किं भवति, चत्वारिंशत् अनन्तरं त्रि इति अस्ति,
त्रिसप्ततिः, किन्तु अशीतिः अनन्तरं
तत्र तत्र सन्धि भवति इति, हा त्रयशीतिः इति, तदनन्तरं त्रिनवतिः इति अस्ति, अस्तु तत्र द्वि अपि त्रि, तत्र चत्वारिंशत् पूर्वम् एकं रूपम् अस्ति, चत्वारिंशत् अनन्तरम् अन्यत् रूपम् अस्ति, एतत् मनसि स्थापयामः। अस्तु, अन्य किं, वेणुगोपाल् महोदय अपि एकम् उक्तवान्, तद् किञ्चित् अग्रे तस्य चर्चा भवतु, अन्य कोऽपि किमपि पश्यन्ति वा तत्र? हा नरेश् महोदय वदतु महोदय। हा
अष्टादश,
अस्तु,
त्रिंशत्, तदनन्तरम् अष्ट, न अष्ट नास्ति,
हा अस्तु समीचीनं, तत्र चत्वारिंशत् पूर्वं किं भवति, अष्ट इति दीर्घ अकारः अस्ति, अष्टा इति, चत्वारिंशत् अनन्तरं किं भवति, अष्ट, अष्ट इति ह्रस्वकारः अस्ति, समीचीनं महोदय, तदपि एकं पेटर्न् अस्ति, समीचीनं, हा अन्यत् किमपि, हा एतत् अस्ति महोदय, तत्र एतत् सर्वं सङ्ख्या विषये किम् अनेकाः नियमाः अस्ति, तत्र सुलभतया एतत् एव प्रक्रिया अस्ति इति न वक्तुं शक्नुमः। हा रूपं तादृशम् अस्ति, केवलं पेटर्न् इति तत् मनसि स्थापयितुं शक्नुमः अत्र। अन्यत्
षोडश इति अनेक इति
तदपि पश्यामः किं भवति तत्र षोडश इति अस्ति
किमपि षोडश तादृशी नास्ति
षोडश इति
केवल
हा षोडश अस्ति तदनन्तरं षड् इति भवति तत्र षोडश इति हा तत्र ट अपि ढ तत्र सन्धि कार्यं टकारः टकारः हा तत्
ओकारः
अस्ति सत्यं सत्यम् अतः तत्र शो षड् विषये किं भवति षोडश इति रूपं भिन्नम् अस्ति तदनन्तरं विंशतितः सर्वत्र षड्विंशतिः षट्त्रिंशत् षट् षट्चत्वारिंशत् षट्पञ्चाशत् षट्षष्टिः षट्सप्ततिः इति एव भवति तत्र षड् अशीतिः षट् योग अशीतिः षड् अशीतिः इति हा तत्र षट् हा तत्रापि तदपि तदपि सन्धिकार्यमेव अस्ति षट् हा षट् योगनवतिः षण्णव षण्णवतिः इति हा तद् अनुनासिकसन्धि इति प्रायशः अस्ति हा तादृश तत् सन्धिकार्यम् अस्ति तत्र हा अस्तु
षट्त्रिंशत् तत्र सन्धिकार्यं नास्ति वा
प्रायशः नास्ति इति मन्ये तत्र बहुत्र सन्धिकार्यं नास्ति खलु सप्तषष्टिः तत्रापि सन्धिकार्यं नास्ति खलु सर्वत्र सन्धिकार्यम् इति हा यत्र स्वरः अस्ति किमपि सर्वत्र सन्धि भवति इति न खलु महोदय
षड्विंशतिः इति सत्यं तत्र षट् योगः विंशतिः महोदय षड्विंशतिः
अस्तु हा
षट् त्रिंशत् किमर्थं षट् योग त्रिंशत् षट् त्रिंशत् न भवति वा
तत्र हा अस्तु 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 भवान् अस्तु अस्तु
षट् अस्ति वि अस्ति मृदुव्यञ्जनम् अस्ति अतः षड् भवति षट् तकार कर्कषव्यञ्जनं नास्ति षट् त्रिंशत् ता अपि कर्कषव्यञ्जनं नास्ति अतः अत्रापि ता अपि तदेव अस्ति यत्र कर्कषव्यञ्जनम् अस्ति अग्रे मृदु अस्ति चेत् मृदु भवति कर्कषः अस्ति चेत् कर्कषः भवति इति पाठम् अस्ति षट्त्रिंशत् षट्त्रिंशत् एव षट्विंशति मृदु अस्ति वकारः अस्ति षड्विंशति तत्र मृदुव्यञ्जनं भवति
अस्तु धन्यवादः महोदय हा अस्तु अन्यत् यत् इदानीं वेणुगोपाल महोदय यद् उक्तवान् तदपि एकवारं चर्चयामः तत्र अत्र पश्यतु सङ्ख्याविषये यादृशव्यवहारः अस्ति तत्र दश अनन्तरं किं कुर्मः एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश इति यत् अस्ति तत् पश्यतु सर्वत्र अनेकासु भाषासु तादृश एव अस्ति विंशतिपर्यन्तम् अन्यत् रूपम् अस्ति तदनन्तरं पाटर्न् अस्ति किन्तु विंशति दश अनन्तरमेव पाटर्न् अस्ति इति तु न खलु आङ्ग्लभाषायां पश्यतु विंशति अनन्तरमेव पाटर्न् अस्ति अपि तत्र आङ्ग्लभाषायाः कृते अपि तत्र एकः भेदः अस्ति सङ्ख्याविषये तत्र आङ्ग्लभाषायां किं वदामः 25 इति वदामः तत्र किं भवति विंशति तदनन्तरं पञ्च इति वदामः किन्तु अत्र किं वदामः पञ्चाधिकविंशतिः इति तादृश व्यवहारः भवति अत्र तत् सर्वासु भारतीयभाषासु एतादृशरूपं नास्ति इति मन्ये खलु पञ्चविंशतिः इति पञ्चविंशति अथवा हा षड्विंशतिः इति हा तद् हिन्दीभाषायां किम् अस्ति
हिन्दीभाषा
न न षड्विंशतिः षड्विंशतिः
षड्विंशतिः
अस्तु. तत्र तु भीस् इति विंशति अस्ति, तद् अनन्तरं भवति, पूर्वं षड् इति अस्ति खलु तत्र. अस्तु, दक्षिणभाषासु, दक्षिणभारतीयभाषासु
तत्रापि तत्र विंशति प्रथमम् आगच्छति
खलु. हा खलु, अतः तत्र रूपद्वयमस्ति अथवा पाठनद्वयमस्ति, विंशति अनन्तरं, यत् संस्कृतेषु संस्कृतभाषासु अस्ति तद् भाषायाम् अस्ति, तद् सर्वभारतीयभाषासु तादृशरूपं नास्ति. तद् अतः एव विंशत् अथवा त्रिंशत् तस्य रूपं यदस्ति तदेव रूपम् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् इति. अतः त्रिंशत् अस्ति, अतः एकत्रिंशत्तः नवत्रिंशत् पर्यन्तं षट् 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 एव अन्ते अस्ति. चत्वारिंशत् अस्ति, अतः नवचत्वारिंशत् पर्यन्तं तदेव रूपम् अस्ति. पञ्चाशत् यदस्ति, अतः नवपञ्चाशत् पर्यन्तं तदेव रूपम् अस्ति. किन्तु षष्टिः अस्ति, तदनन्तरं नवषष्टिपर्यन्तम् एकमेव रूपम् अस्ति. अतः यत् रूपं दश, विंशतिः, त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टिः, सप्ततिः, अशीतिः, नवतिः, शतं, तेषां रूपम् एव अन्याः सङ्ख्यायाः सङ्ख्यानाम् अपि अन्यानां सङ्ख्याः याः सन्ति तेषां रूपमपि तादृशमेव अस्ति. अस्तु,
भवान् उक्तवान्
वदतु भगिनी, वदतु वंशीसुध भगिनी, तदनन्तरं रघुपतिमहोदय वदतु.
आं महोदय, दक्षिणतः यत् पठामि तत् एव प्रथमम् आगच्छति संस्कृतसङ्ख्यायाः विषये महोदय, परन्तु अन्यः भाषायाम् अभिन्नः अस्ति.
हा हा हा, सत्यं सत्यं, तत्र तत्र हा तत्र
वामतः एक्चुलि
वामतः इति नास्ति, वामतः इति नास्ति खलु महोदय, दक्षिणतः एव अस्ति महोदय. आङ्ग्लभाषायां
लेखनसमये
वामतः लिखामः,
पठनसमये पठनसमये दक्षिणतः एव.
एतत् किमर्थमिति न जानामि, किन्तु एतदेव पाठन् अस्ति. तत्र अष्टोत्तरशतनामावली इति एव वदामः खलु, तत्र शत, अतः तत्र 108 इति नास्ति, तत्र किञ्चित् भेदः अस्ति. अस्तु, अन्यत्
अत्र महोदय भवान् उक्तवान् द्वे अधिक विंशतिः, तत्र सर्वत्र अहं चिन्तयामि सर्वत्र एतत् समासः अस्ति, अतः समासस्य नियमः अत्र भवति, अतः द्वे अधिकविंशति कर्मधारसमासः अस्ति, अतः द्विविंशतिः, चतुरधिकत्रिंशत्, चतुस्त्रिंशत् इति
प्रायशः समासः
कुत्रापि मां दृष्टवान्, ये समासः एव अस्ति, अतः समासस्य नियम अहं चिन्तयामि अत्र भवितुमर्हति, न जानीमः
किन्तु तत्र सन्धिकार्यं वा समासकार्यं तत्तु अस्ति एव.
समासः अस्ति चेत् सन्धि कम्पल्सरि भवति.
अस्तु, समीचीनं महोदय, धन्यवादः. अस्तु, अन्य कोऽपि किमपि पाठनं तत्र पश्यन्ति वा?
सर्वे सर्वान्
मधुसूदन महोदय किमपि तत्र पश्यति वा? अस्तु अस्तु अस्तु, तत्र वयं प्रायशः अभ्यासपुस्तके एव दृष्टवन्तः, तत्र एकः नियमः अस्ति, तत्र किम् अस्ति, एकः द्वे त्रीणि चत्वारि, तत्र लिङ्गभेदः अस्ति, रूपसमानं नास्ति, तदनन्तरं रूपसमानम् अस्ति पञ्चतः, अतः वयं किञ्चित् तस्यापि अभ्यासः कुर्मः. किन्तु प्रथमतया याः सङ्ख्याः वयं दृष्टवन्तः तत्र एतत् अभ्यासं मया चिन्तितमस्ति, पश्यामः यदि कर्तुं शक्नुमः इति. अस्तु, तत्र अनुक्रमणिका इति अस्ति गीतासोपानपुस्तके, अनुक्रमणिका. अनुक्रमणिका इत्युक्ते किम्? अनुक्रमणिका इण्डेक्स् तादृश, टेबल् आफ् कण्टेण्ट्स् इति प्रथमपुटे प्रथमभागे एव अस्ति, द्वितीयतृतीयपुटे एव अस्ति. पुटसङ्ख्या, कः विषयः, पाठः कः, पाठः कस्मिन् पुटे अस्ति इति
द्वितीयपृष्ठे अस्ति पुस्तकस्य.
तत्र गच्छामः, तत्र गत्वा
द्वितीय
अथवा तृतीयपुटे अस्ति भगिनि, द्वितीय अपि नास्ति, पुटसङ्ख्या तत्रापि तत्रापि नास्ति, आरम्भे अस्ति भगिनि, आरम्भे अस्ति, तत्र पाठसङ्ख्या, पाठः, पृष्ठसङ्ख्या इति. अस्तु, इदानीं तद् दृष्ट्वा पश्यामः. अस्तु, तत्र शोभा भगिनि, तत्र को भवान् इति पञ्चमपाठः, पुटसङ्ख्या किम् अस्ति तत्र?
तत्र चतुर्दश,
चतुर्दश इति अस्ति. अस्तु, चतुर्दश, चतुर्दश इति सा तावदेव. अस्तु, नरेश् महोदय, तत्र श्वः कस्य जयः इति एकविंशतिपाठः, एकविंशतितमपाठः, तत् कस्मिन् पुटे अस्ति?
चतुस्सप्ततिः,
चतुस्सप्ततिः इति, समीचीनं महोदय. गीताञ्जलि भगिनि, तत्र पञ्चैतानि महाबाहो इति, तत् पञ्चैतानि महाबाहो सप्तदशपाठः कस्मिन् पुटे अस्ति?
अष्टपञ्चाशत्.
यस्मिन् पुटे सङ्ख्या दत्तमस्ति तदेव पुटमस्ति, अष्टपञ्चाशत्.
अस्तु महोदय.
मधुसूदन महोदय, तत्र संक्षेपगीता चतुर्दशपाठः, तत् कस्मिन् पुटे अस्ति? चतुर्दश संक्षेपगीता, चतुश्चत्वारिंशत्, समीचीनं. रघुपति महोदय, तत्र एकादशपाठः,
एकादशपाठः द्वात्रिंशत्, द्वात्रिंशत्,
द्वात्रिंशत् अस्ति. बाणचित्तनि महोदय, तत्र नवदशपाठः कस्मिन् पुटे अस्ति?
त्रयःषष्टिः, त्रयःषष्टितमपुटे,
तत्र त्रयस् इति भवान् एव उक्तवान्, चत्वारिंशत् अनन्तरं रूपम् अन्यत् भवति इति.
आं महोदय, सत्यं, त्रिषष्टिः,
त्रिषष्टिः, त्रिषष्टिः, समीचीनं महोदय. अस्तु, सर्वे उक्तवन्तः वा? अस्तु, तत्र वंशीसुत भगिनी क्षम्यताम्. अस्तु तत्र तत्र किं अस्तु अस्तु एतद् त्रयोविंशतिः पाठः कस्मिन् पुटे अस्ति? क्रोधपिशाचः इति तस्मिन् पुटे अधोभागे अस्ति, अन्तिम अन्तिमपाठः.
सप्ताशीतिः महोदय.
हा सप्ताशीतिः समीचीनं, सप्ताशीतिः इति. अस्तु समीचीनमेव अस्ति. सर्वे इदानीं किञ्चित् सङ्ख्या विषये परिणताः भवन्तः. अस्तु अग्रे अग्रे एतत् कुर्मः. तत्र अभ्यासः अस्ति, तत् एकवारं कृत्वा तत्र ज्ञानवर्धनी इति किमपि अस्ति परिमाणम् इति विषये, तत् कृत्वा एका लघुकथा अस्ति, तत् पठामः सङ्ख्याविषये एव. अस्तु तत्र इदानीम् अभ्यासः कुर्मः. तत्र अष्टपञ्चाशत्तमे पुटे सङ्ख्याविषयः यत्र अस्ति तत् तस्मिन् पुटे एव. तत्र नरेश् महोदय तत्र प्रथम अभ्यासः करोति वा तत्र? एकनिमिषं महोदय, तस्य पूर्वं कोऽपि अस्तु. शोभा भगिनी, तत्र भवती स्मरति वा एकः इति रूपं कथं भवति, पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे?
एकः एका एकं.
हा समीचीनं समीचीनं भगिनि, धन्यवादः. नरेश् महोदय, द्वे इति रूपं कीदृशं भवति, पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे?
पुल्लिङ्गे द्वौ, स्त्रीलिङ्गे द्वे, नपुंसकलिङ्गे द्वे अपि.
द्वौ द्वे द्वे इति भवति. समीचीनं. तत्र गीताञ्जलि भगिनी स्मरति वा त्रयः इति?
महद्वयं न भवति वा नपुंसकलिङ्गे?
न, तत्र द्वयम् इति किं भवति, तद् फलद्वयं पुरुषद्वयम् इति तद् सर्वत्र नपुंसकलिङ्गे एव भवति.
फलं फले फलानि फले.
किन्तु यदि वक्तुमिच्छामः द्वे फले, तत्र द्वे एव भवति. फलद्वयम् इति किं भवति, तद् फल द्वे फले स्तः, किन्तु फलद्वयम् अस्ति
महोदय.
गीताञ्जलि भगिनि, त्रयः इति रूपं किं भवति?
त्रयः
पुल्लिङ्गे
पुंलिङ्गे, तिस्रः स्त्रीलिङ्गे, त्रीणि नपुंसकलिङ्गे.
नपुंसकलिङ्गे समीचीनं. एतत् स्मरणीयम् अस्ति. अस्तु अग्रे वंशीसुधा भगिनी, तत्र चत्वारः इति पुल्लिङ्गे अपि? चत्वारि इति. अस्तु तदनन्तरं रूपभेदं नास्ति, पञ्च पञ्च एव सर्वत्र भवति. अस्तु तत्र अस्तु तत् तत्तु पूर्वमेव कृतम्. अस्तु इदानीम् एतत् कर्तुं शक्नुमः. अस्तु नरेश् महोदय इदानीं.
आवरणे विद्यमानानां सङ्ख्यां दृष्ट्वा कति सन्ति इति लेखकः. यथा द्वौ हस्तौ, एकः धनुः.
एकः धनुः, एकः इति पुल्लिङ्गे भवति. समीचीनं. समीचीनं. रघुपति महोदय.
षोडश षोडशसंस्काराः.
षोडशसंस्काराः समीचीनं. अग्रे मधुसूदन महोदय.
एकः सारथिः.
एकः सारथिः समीचीनं. गीताञ्जलि भगिनि.
दश इन्द्रियाणि.
दश इन्द्रियाणि समीचीनं. वंशीसुध भगिनि.
द्वे अयने महोदय.
द्वे अयने समीचीनं. अयने पदस्य लिङ्गं किम्?
अयने इति स्त्रीलिङ्गं महोदय, अथवा अयनं नपुंसकलिङ्गे अस्ति
वा? अयनं नपुंसकलिङ्गपदम् अस्ति, अयने समीचीनं। अस्तु शोभा भगिनी,
चत्वारि आश्रमाः, सारि महोदय, एकः चत्वारि आश्रमाः,
आश्रमः तु पुल्लिङ्गे अस्ति,
पुल्लिङ्गे अस्ति, चत्वारः आश्रमाः,
समीचीनं भगिनि, चत्वारः आश्रमाः, अत एव पुनस्मरणं वयं कृतवन्तः, केवलम् एकः द्वे त्रीणि चत्वारि तस्मिन् विषये, समीचीनं भगिनि। अस्तु अग्रे रघुपति महोदय,
पञ्च, ओके, पञ्चकर्मसिद्धिकारणानि, पञ्चसिद्धि कर्मसिद्धिकारणानि पञ्च,
पञ्च इति समीचीनं। वेणुगोपाल महोदय,
अस्तु महोदय,
अष्ट,
अष्ट वासवः इति अस्तु महोदय,
न तत्र संख्या अभ्यासस्य संख्या एकमस्ति, तदनन्तरं यः संख्या अपेक्षितमस्ति तद् अन्या अस्ति।
अस्तु, योधः इति,
योधाः इति सत्यं,
अस्तु महोदय, आशीतिः योधः, योधः
अशीतिः, अशीतिः,
अशीतिः योधाः,
अशीतिः योधाः, समीचीनं महोदय,
योधाः, अस्तु,
समीचीनं। वंशीसुध भगिनी अग्रे,
क्षम्यतां महोदय, दशमबिन्दुः न, दशमबिन्दुः
न, नवम, नवम,
नवम, अष्ट वसवः,
अष्ट वसवः, समीचीनं। बालचित्रि महोदय अग्रे,
द्विचत्वारिंशत् अश्वाः,
समीचीनं महोदय। गीताञ्जलि भगिनि,
षट् ऋतवः,
तत्र
भवति
षड्
ऋतव,
सत्यं, किन्तु इदानीं महोदय तत्र यत् दत्तमस्ति अत्र तदेव रूपं भवतु खलु, अस्तु, षट् इति तत्र संख्या अस्ति, षट् इति, अस्तु, तत्र ऋतवः इति अस्ति बहुवचने अस्ति खलु भगिनि, एकवचने किम् अस्ति,
ऋतु,
ऋतु,
ऋतुः,
गुरवः इति तादृश ऋतवः, अस्तु, अस्तु समीचीनं। मधुसूदन महोदय अग्रे, षट् 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 किमर्थं महोदय,
चत्वारि,
महोदय तत्र एकनिमिषः महोदय, मधुसूदन महोदय, तत्र प्रथमतया एतत् वदतु, त्रिंशत् इत्युक्ते आङ्ग्लभाषायां वदतु, त्रिंशत् इत्युक्ते किं, चत्वारिंशत्,
चत्वारिंशत्,
पञ्चाशत्, अस्तु, षष्टिः, अस्तु, इदानीम् इदानीं यदस्ति तत् अस्ति 54 इति, अतः किं भवति, पञ्चाशत् इति आवश्यकं, तदनन्तरं चतुर् इति, चतुष्पञ्चाशत् इति,
तत्र भिन्नः चत्वारि वा चतुश्च वा किञ्चित्,
अस्तु 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 अस्तु, किन्तु तत्र समीचीनम्, अस्तु, तत्र सर्वत्र चतुः एव अस्ति, चतुः एव अस्ति,
एकपञ्चाशत्,
इषवः, 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 समीचीनं, तत्र प्रायश प्रायशः इषुः इति अस्ति इति मन्ये एकवचने, अतः इषवः इति बहुवचने भवति, अस्तु। नरेश महोदय अग्रे,
अष्टादश अध्यायाः,
अष्टादश अध्यायाः इति समीचीनं। शोभा भगिनी अग्रे,
षट् सप्ततिः राजा गजाः,
गजाः, समीचीनं भगिनि, षट् सप्ततिः गजाः, समीचीनं। हा अग्रे रघुपति महोदय।
हा नेत्राणि, त्रीणि नेत्राणि।
त्रीणि नेत्राणि, हा समीचीनं। हा अस्तु, गीताञ्जलि भगिनि।
त्रीणि नेत्राणि, नायकाः, नायकाः पुंलिङ्ग बहुवचन, त्रयः नायकाः।
हा त्रयः नायकाः, समीचीनं। हा बालचेतनी महोदय।
महोदय, जन्मनक्षत्राणि, तत् नपुंसक लिङ्गः, जन्मनक्षत्राणि, अतः सप्तविंशतिः जन्मनक्षत्राणि।
हा समीचीनं महोदय, सप्तविंशतिः जन्मनक्षत्राणि। अस्तु अग्रे वंशीसुधा भगिनी।
आं महोदय, सेने, सेने इति अहं चिन्तयामि स्त्रीलिङ्गे अस्ति, द्वे सेने महोदय।
द्वे सेने, समीचीनं भगिनि। हा द्वे सेने समीचीनं। हा वेणुगोपाल् महोदय अग्रे।
द्वात्रिंशत् दन्ताः।
द्वात्रिंशत् दन्ताः, समीचीनं। रघुपति महोदय।
द्वात्रिंशत् अष्ट, सारी, षट् षट् षण्णवतिः, षण्णवतिः स्यन्दनानि।
हा षण्णवतिः स्यन्दनानि, समीचीनं। हा शोभा भगिनि।
कुत्र महोदय?
आदित्याः, आदित्याः,
आदित्याः। अत्र द्वादश, द्वादश आदित्याः,
द्वादश आदित्याः, समीचीनं। हा नरेश महोदय।
चत्वारि युगानि।
हा चत्वारि युगानि, नपुंसकलिङ्गे अस्ति इति कृत्वा, समीचीनं महोदय। हा अस्तु मधुसूदन महोदय। हा द्वौ पक्ष पुल्लिङ्गे अस्ति, समीचीनं महोदय, समीचीनं। हा अस्तु वेणुगोपाल् महोदय।
अष्टादश पुराणानि,
अष्टादश अष्टादश पुराणानि, समीचीनं महोदय। हा वंशीसुधा भगिनि।
रसाः, षट् रसाः भवति महोदय।
हा हा षट् रसाः, समीचीनं भगिनि। हा तत्र केवलं एकं द्वे त्रीणि चत्वारि, तत्र लिङ्गभेदः भवति रूपस्य, तदनन्तरं भेदः नास्ति। हा समीचीनं भगिनि। अस्तु अग्रे बाणचेतनि महोदय।
महोदय, कस्मिन् बिन्दु महोदय?
प्राणाः, प्राणाः इति,
प्राणाः महोदय, पञ्चप्राणाः।
समीचीनं महोदय, अस्तु सुलभमस्ति। अस्तु गीताञ्जलि भगिनि।
मनवः चतुर्दश, मनवः,
तत्र एकवचने किं भवति?
मनु, मनुः,
मनुः इति, समीचीनं। हा अस्तु अग्रे मधुसूदन महोदय।
त्रयस्त्रिंशत् देवताः,
समीचीनं महोदय। अस्तु त्रयस्त्रिंशत् देवताः सन्ति इति, अस्तु इदानीम् अग्रे एतत् किञ्चित् लघु परिमाणं विषये किञ्चित् लघु श्लोकः अस्ति, तद् एकवारं पठित्वा एका लघुकथां, एकं लघु एकां कथां पठामः। अस्तु तत्र शोभा भगिनी किञ्चित् पठति वा तत्र?
महोदय, महोदय, अयने अर्थं किं महोदय? नयनम्, अयनम्,
अयनम्,
अयनम् अर्थं किम्?
अयनद्वयम्,
उत्तरायणम्, दक्षिणायनम्,
शोभगिनि
दानवर्धनी वा
महोदय सत्यं भगिनि
वर्धनी अक्षौहिण्याः परिमाणम् अक्षौहिण्याः परिमाणम् एको
तत्र अक्षौहिण्याः इति रूपं कीदृशम् इति वदति वा अक्षौहिण्याः इति
षष्ठीविभक्तिः
प्रथमविभक्तिरूपम्
अक्षौहिणी
हा नदी नद्याः अक्षौहिण्याः समीचीनं भगिनि समीचीनं हा इदानीम् अग्रे
एको रथो गजश्चैको नराः पञ्च पदातयः एको रथो गजश्चैको नराः पञ्च पदातयः त्रयश्च
तुरगास्तज्ञैः
तुरगास्तज्ञैः पत्तिरित्यभिधीयते
अभिधीयते इत्युक्ते उच्यते इति उच्यते इति नामकरणम् इति व्यवहारं भवति इति व्यवहारः भवति इति
एकगजः एक रथः पञ्च पदातयः नराः त्रय अश्वाः एकपत्तिः
एतत् एकपत्तिः इत्युक्ते एकगजः एकरथः पञ्च पदातयः नराः त्रयः अश्वाः इति
एक तत्र सप्तमविभक्ति किं भवति महोदय पत्तिः पदस्य
तत् प्रथमविभक्तिरूपमेव अस्ति तद् पत्तिः इति नाम अस्ति
किन्तु अहं वक्तुम् इच्छामि एकपत्तिः
ओ तस्य
इन्
वन् पत्ति तत्र अहं चिन्तयामि तत्र पत्तिः पत्तिः इति तु ह्रस्वैकारः अस्ति तत्र प्रायशः हरिः मतिशब्दवत् अस्ति मत्याम् अथवा श्रीलिङ्गे अहं चिन्तयामि हरौ अपि रूपं मतिः तु तत्र सप्तमीविभक्तिरूपस्य रूपद्वयमस्ति हरिशब्दवत् अपि नदीशब्दवत् अतः अहं तु अत्र तु हरौ इति रूपं दृष्ट्वा पतौ इति पत्तौ इति पत्तौ इति
एकपत्तौ एतानि सन्ति
समीचीनं तत्र तत्र धन्यवादः भगिनि तत्र पत्तिः इति अभिधीयते इत्युक्ते उच्यते इति उच्यते पत्तिः इति अभिधीयते तत्र त्रयश्च तुरगस्तज्ञैः पत्तिः तत्र तुरगास्तज्ञैः तस्य किमस्ति तस्य सैन् तत्र तस्य नाम पत्तिः इति तादृशव्यवहारः भवति एकः रथः गजः एकः नराः पञ्च पदातयः त्रयश्च तुरगः तज्ञैः पत्तिः इति अभिधीयते इति अस्तु तत्र पत्तिः इति किम् इति इदानीं ज्ञातवन्तः अस्तु अग्रे वंशीसुत भगिनी अग्रे
महोदय
पदातयः इत्युक्ते किं महोदय यः
पदाभ्यां
ओ कन्नड मध्ये अस्ति अस्तु महोदय
महोदय पदाति दलं फुट् सोल्जर्स्
पदं किम् अस्ति महोदय पदातयः इति बहुवचने अस्ति पदात् इति अस्ति महोदय
न पत्ति भिन्नमस्ति तत्र अहं चिन्तयामि तयः इति अस्ति बहुवचने हरयः हरयः इति चिन्तयामि पदाति प्रायशः
पदाति अस्ति महोदय पदाति पदातयः इति पदाति पदातयः
हरिः पदातिः
महोदय स्पोकन् संस्कृत मध्ये पत्तिः स्त्रीलिङ्गे अस्ति महोदय
धन्यवादः अस्तु किन्तु भगिनि किन्तु तत्र तत्र यदि अहं यदि वयं लिङ्गं न जानीमः किन्तु ह्रस्व इकार अस्ति तत्र पुल्लिङ्गे अथवा पुल्लिङ्गे पुल्लिङ्गे पुल्लिङ्गरूपं स्वीकर्तुं शक्नुमः किमर्थं चेत् तत्र मतिशब्दस्य सप्तमीभक्तिरूपद्वयम् अस्ति मतौ अथवा मत्यां यदि जानीमः तत् स्त्रीलिङ्ग एव अस्ति दीर्घ इकारः अस्ति चेत् स्त्रीलिङ्ग इति जानीमः ह्रस्व इकारः अस्ति चेत् न जानीमः खलु अतः अहं मत्तौ पत्तौ इति स्वीकृतवान् किन्तु यदि जानीमः स्त्रीलिङ्गे अस्ति चेत् पत्याम् इति वक्तुं शक्नुमः
आं महोदय अवगच्छामि भवान् एकदा उक्तवान्
यदि न जानीमः तत् क्लेशः भवति खलु अतः अस्तु अस्तु वंशीसुधा भगिनी अग्रे
तत्र पुल्लिङ्ग एव अस्ति पुल्लिङ्ग अपि अस्ति
पत्तिः वा
पति इन्फेण्ट्रि अस्ति पत्ति पुल्लिङ्ग अस्ति फुट् मेन् अस्ति पुल्लिङ्ग अस्ति पत्ति फुट् सोल्जर्
पदातिः अथवा पत्तिः
पत्तिः
पत्तिः पत्तिः स्मालेस्ट् डिविजन् आफ् आर्मी इति दत्तम् अपि
तत्तु अस्तु किन्तु किन्तु किमपि किमपि किन्तु सप्तमीभक्तिरूपम् अस्ति पत्तौ इति खलु अस्तु अग्रे वंशीसुधा भगिनी अग्रे
पत्तिं तु त्रिगुणा मेता माहुः सेना मुखं बुधाः अग्रे पठामि वा
अग्रिममपि
त्रीणि सेना मुखान्येको गुल्म इत्यभिधीयते
तत्र इति अभिधीयते अभिधीयते इति नामकरणम् इति नामकरणम् अस्ति अथवा इति व्यवहारः अस्ति तत्र पत्तिं पत्तिं तु त्रिगुणं त्रिगुणम् इत्युक्ते गुणम् इति त्रिगुणात्मकम् त्रिगुणात्मकम् त्रिगुणाम् एताम् आहुः एताम् आहुः सेनामुखं सेनामुखं बुधाः इत्युक्ते एकसेनामुखं किमस्ति त्रयः त्रयः न तिस्रः यदि स्त्रीलिङ्गे अस्ति अथवा पुल्लिङ्गे अस्ति त्रयः वा तिस्रः वा पत्तयः एकं सेनामुखं भवति
त्रीणि सेनामुखन्येको अन्येको
गुल्मान् मुखान् एको
मुखानेको मुखानेको गुल्म
मुखानि मुखानि तत्र मुखानि एको
मुखानि एको गुल्म इति अभिधीयते
इत्युक्ते एकगुल्म किम् अस्ति त्रीणि
त्रीणि सेनामुखानि
त्रीणि सेनामुखानि एक एकः गुल्मः अस्ति
गुल्म
अर्थः तदेव अस्ति
सेनामुखानि
त्रीणि सेनामुखानि
एतत्
सर्वं सेनाविषये अस्ति सेनायाः विभागः कुर्वन्ति तत्र पत्तिः अस्ति अस्तु तत्र एकः गुल्मः त्रीणि सेनामुखानि इति अस्तु समीचीनम् अग्रे गीताञ्जलि भगिनी पठति वा अग्रे
आं महोदय त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः स्मृतास्ति स्रस्तु वाहिन्यः व्रतनेति विचक्षणैः
विचक्षणैः अस्तु त्रयः इत्युक्ते तत्र अधोभागे दत्तमस्ति खलु त्रयः गुल्माः किमस्ति एकः गणः अस्ति हा तदनन्तरं वाहिनी तु
गणास्त्रयः
हा वाहिनी तु गणास्त्रयः
वाहिनी इत्युक्ते महोदय
त्रयः गणाः
दत्तमिति
तत्र किमपि अन्यत् किमपि न वक्तुं शक्नोमि भगिनि तत्र अथवा अथवा अन्यरीत्या वक्तुं शक्नोमि अस्तु 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 एकनिमिषः अन्यरीत्या वदामि एका वाहिनी इत्युक्ते नव गुल्माः इति अथवा एतदपि वक्तुं शक्नुमः सप्तविंशतिः सेनामुखानि इति
सप्तविंशति सेनामुखानि
अथवा एकाशीतिः पत्तयः इति
एकाशीतिः पत्तयः आं महोदय स्मृता
तस्य भिन्ना किमपि न वक्तुं शक्नुमः खलु तत्र आं
महोदय
अग्रे
स्मृता तिस्रस्तु
वाहिन्यः
पृतनेति विचक्षणैः
पृतना इति विचक्षणैः
पृतना
इति
दीर्घ पृतना
पृतना स्त्रीलिङ्गे अस्ति स्त्रीलिङ्गे अस्ति पृतना अधोभागे एव दत्तमस्ति तत्र
पृतना
तिस्रः वाहिन्यः एक पृतना इति
तिस्रवाहिन्य एकप्रतना तिस्रप्रतनाः एकचमूः इति दत्तम्
तत् अग्रे अस्ति किन्तु यत् यं श्लोकं भवती पठितवती तत्र केवलं तिस्रः वाहिन्यः एका पृतना इति अस्ति स्मृताः केवलं स्मृता इति स्मृता विचक्षणैः तिस्रः तु वाहिन्यः पृतना इति विचक्षणैः विचक्षणैः स्मृता विचक्षणैः इत्युक्ते
विचक्षणैः वन् हु नोस् विचक्षणैः वन्
विचक्षणा विचक्षणः
चक्षु वन् हु नोस् एव्रीथिङ्ग्
क्लेवर् वाइज
क्लेवर
वाइज विचक्षणः वाइज विचक्षणः तैः
कर्मणि स्मृता
बाय देम इट इज रिमेम्बर्ड दे रिमेम्बर दट दे रिमेम्बर दट अस्तु इदानीं सर्वे विचक्षणाः भवन्ति इति इच्छा अस्ति चेत् किं करणीयम् एका पृतना इत्युक्ते का इति वक्तव्यम् अस्तु अग्रे दशवर्गानन्तरम् अहं पृच्छामि एका पृतना इत्युक्ते का इति यः अथवा या वदति सा विचक्षणा अथवा विचक्षणः भवति अस्तु स्मरणं यदि स्मरणम् अस्ति चेत् नो चेत् न अस्तु अग्रे कः गीताञ्जलि भगिनी पठितवती नरेश महोदय पठति वा अग्रे
आं महोदय चमूत्तु
चमूस्तु प्रतनास्ति
तिस्रस् तिस्रस् तिस्रः
तिस्रः तिस्रः
तदनन्तरं तिस्रस् तिस्रः तिस्रः चमु
चम्बस्तनि वनीकिनि वनीकिनि
चम्बस्त् वनीकिनि हा तत्र अधोभागे दत्तमस्ति तत् किमस्ति
वनीकिनि
हा तिस्राः तिस्रः पृतनाः किमस्ति एकः तिस्रः पृतनाः एका चमुः इति चमुः इति पदस्य लिङ्गं किम्
चमुः स्त्रीलिङ्गं
वा स्त्रीलिङ्गपदम् इति मन्ये खलु ऊकारान्तस्त्रीलिङ्गपदम् अस्ति हा चमू चम्बौ चम्बः वधु शब्दवत् हा वधूः इति यत् आसीत् सत्यं सत्यम् अतः तिस्रः पृतनाः एका चमूः इति भवति हा तदनन्तरं चम्बः इति तस्य पूर्वं किम् अस्ति त्रयः वा तिस्रः वा हा तिस्रः चम्बः एका हा एका अनीकिनि 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 इति अस्ति अस्तु अग्रिमम् अन्तिमम्
अनीकिनीम् अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः
तत्र अक्षौहिणी इत्युक्ते किम् अस्ति
दश
दश अनीकिन्यः अनीकिन्यः दश अनीकिन्यः एक एका अक्षौहिणी इति भवति हा अस्तु तत्र युद्धविषये तत्र अक्षौहिणी इति एव भवति कति अक्षौहिण्यः सन्ति इति एव व्यवहारः भवति हा तत्र एका
प्राहुर किमस्ति
आहुः बुधाः प्राहुः बुधाः
इत्युक्ते किमस्ति प्राहुः
इट् इस् आहुः इट् इस् ओब्टेन्ड् इति प्रायशः
टोल्ड्
टोल्ड् हा टोल्ड्
टोल्ड् आहुः प्राहु
अस्तु इदानीं किञ्चित् हा किञ्चित् अभ्यासः अत्र कुर्मः तत्र तु एकस्याम् अक्षौहिण्यां कति गजाः रथाः सर्वं दत्तमस्ति किन्तु एतत् किञ्चित् कुर्मः तत्र एकगणे अस्तु अस्तु हा एतत् कुर्मः तत्र हा एका सेनामुखे कति अश्वाः सन्ति हा मधुसूदन महोदय सेनामुखे कति अश्वाः सन्ति सेनामुखे तिस्रः पत्तयः एकपत्तिः इक्वल्स् त्रयः अश्वाः
एकपत्तिः एकपत्रीः त्रयः अश्वः अस्तु त्रयः अश्वः
नव अश्वः समीचीनं महोदय नव अश्वः
सेनामुखं नव अश्वः
नव अश्वः समीचीनम् अस्तु शोभा भगिनि एका सेनामुखे कति नराः
एकसेनामुखे कति नराः पत्तिं तु त्रिगुणमोनाः
तत्र तु एकपत्तिः इति यत् भवती पठितवती तत्र अतः तत्र
महोदय पञ्च पदातयः नराः
तत् एकपति इदानीं तिस्रः पत्तयः
पत्तयः पञ्चदश पञ्चदश नराः
हा तावदेव हा अस्तु एतादृश तादृश अभ्यासं करोतु तत्र लाभः अस्ति इति अस्तु इदानीं त्यजामः किन्तु एकवारम् अहं प्रदर्शितुम् इष्टवान् एतादृश अभ्यासम् अत्र कर्तुं शक्नुमः इति तावदेव अस्तु इदानीं किञ्चित् एका लघु एका कथा अस्ति तत् अहं तत्र ईमेल् द्वारा न प्रेषितवान् किन्तु यत् ईमेल् द्वारा यत् एतद् ब्लाक् बोर्ड् अस्ति कृष्णफलकम् अस्ति अस्माकं वर्गस्य तत् बहुवारं न तस्य उपयोगं कृतवन्तः किन्तु अद्य तस्य उपयोगं कुर्मः तत्र यदि तत्र द्विवारं लिङ्क् क्लिक् करणीयम् अस्ति एकवारं ब्लाक् बोर्ड् गच्छन्तु तत्र क्लिक् हियर् फोर् सङ्ख्या कथा इति अस्ति तत् कृपया क्लिक् करोतु पुटद्वयमेव अस्ति एतत् एषा कथा सर्वे प्राप्नुवन्तः वा अस्तु
कुत्र अस्ति महोदय
प्रथमतया ईमेल् मध्ये ट्यूस्डे ब्लाक् बोर्ड् इति कृष्णफलकम् इति लिङ्क् अस्ति तद् तत्र क्लिक् करोतु कृष्णफलके अहं स्थापितवान् तत्र अद्यतनवर्गस्य सङ्ख्या कथा इति डाट् पी डी एफ् इति एका लिङ्क् अस्तु तत्र पठितुं शक्नुवन्ति खलु तत्र दृश्यते खलु अस्तु 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 इदानीं रघुपतिमहोदय आरम्भं कर्तुं इच्छति वा तत्र
एकनिमिषः आपणिकः
अस्ति ग्राहकः अस्ति
भूत्यै न प्रमदितव्यं
भूत्यै न प्रमदितव्यं भूत्यै
आपणिकः आपणिकः आगच्छतु श्रीमन् आगच्छतु वदतु किं ददामि ग्राहकः बहूनि वस्तूनि आवश्यकानि सन्ति द्वे द्रोण्यौ द्वौ तृणकटौ तिस्रः स्थाल्यः षट् चषकाः किञ्चित् विरमति अनन्तरं किञ्चित् विरमति आपणिकः भवान् वदन् भवतु आदौ अहम् एकनिमिषं महोदय भवान् वदन् भवतु आदौ अहम् अपेक्षितां वस्तुसूचीं लिखामि ततः सर्वाणि वस्तूनि निष्कास्य दास्यामि ग्राहकः अस्तु तर्हि लिखतु दशचमसाः
किमर्थं हसति महोदय भवान्
महोदय अनन्तरं पठामि
अस्तु महोदय अस्तु 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 अन्य कोऽपि पठति अस्तु शोभा भगिनी पठतु इदानीम्
महोदय मामपि हसितवान्
अस्तु अस्तु
ग्राहकः अस्तु तर्हि लिखतु दशचमसाः चतस्रः दर्व्यः द्वौ अवकरकण्डोलौ दश अल्पाहारस्थाल्यः आपणिकः अन्नव्यञ्जनादि निर्माणाय पात्राणि ग्राहकः तानि मध्यमाकाराणि चत्वारि ददातु चषकाः सन्ति किम् आपणिकः आम् सन्ति कति ददानि ग्राहकः इदानीं चतुरः ददातु पुनः अन्ये कति आवश्यकाः इति मम पत्नी अनन्तरं वदिष्यति
अस्तु हा
आपणिकः सद्यो विवाहितः भवान् इति भाति ग्राहकः आम् आम् किन्तु कथं ज्ञातं भवतु? आपणिकः
वदतु भगिनि.
विनोदमयमस्ति वा महोदय?
आम् आम् सत्यं भगिनि सत्यं.
एवं पाकशाला सम्बद्धानि सर्वाणि वस्तूनि सद्यो विवाहितः खलु क्रीणाति? एवं वा ग्राहकः? एवं वा. अस्तु, इदानीं कियद् देयमिति त्वरितं वदतु. अन्यावश्यकानि
अत्यावश्यकानि
अत्यावश्यकानि बहूनि कार्याणि.
अस्तु भगिनि, धन्यवादः. अग्रे अन्य कोऽपि वदत् पठतु. हा, वेणुगोपाल् महोदय.
अस्तु महोदय, गणिकः
आपणिकः अपि ग्राहकः.
अस्तु, आपणिकः अस्तु. संख्या
संकलय्य वदामि.
संकलन
अनन्तरं
संकलनानन्तरं सर्वा महत्य
सर्वम् आहत्य
सर्वमहत्य रूपायकानां रूप्यकाणां पृशति अभवत्. मम पार्श्वे प्रिण्ट्
यत् पश्यति तदेव वदतु महोदय, समस्या
अस्तु. मया एतावन्ति वस्तूनि क्रीतानि, किञ्चित् मूल्यं न्यूनं न करिष्यति. ग्राहकः न जानीमः महोदय, किन्तु अद्यत्वे सर्वाणि वस्तूनि महार्घानि मिलन्ति, अतः व्यवसाये बहु लाभः नास्ति. बावा वदति चेत् पञ्चरूप्यकाणि.
भवान् वदति चेत् तत्र भवान् इति अस्ति,
अस्तु. भवान् वदति चेत् पञ्चरूप्यकाणि न्यूनीकृत्य ददातु. पञ्चाभिः रूप्यकैः किं भवति? किञ्चित् भूयः न्यूनीकरोतु, स्वीकरोतु. न महोदय, एवं न करोतु. भवान् उच्चपदे आसीनः, कश्चन अधिकारी वर्तते
इति तत्र इति अस्ति.
अस्तु इति जानामि, तर्हि किमर्थम् एवम् आचरति? उच्चपदे आसीनः. उच्चपदे आसीनः अस्मि इति यत् भवता उक्तं तत् तु सत्यं, किन्तु भवान् न जानाति वा? नहि महोदय, यथा किमपि न जानामि. तथा किमपि न जानामि, भवान् एव वदतु. तर्हि शृणोतु, भूत्यैः न प्रमादितव्यं, भूत्यैः न प्रमादितव्यं. धनसङ्ग्रहे अवहेलनं न
युज्यते. समीचीनं महोदय, धन्यवादः. अस्तु अस्तु, इदानीं हास्यास्पदमेव अस्ति, किन्तु तत्रापि व्याकरणविषयः अस्ति. पश्यामः। हा अस्तु, तत्र किं भवति, हा तत्र भूत्यै न प्रमदितव्यम् इति, हा तत्र तस्मिन् विषये किञ्चित् अग्रे वदामि, किन्तु प्रथमतया कथां पश्यामः। आगच्छतु श्रीमन्, आगच्छतु, वदतु किं ददानि, तत्र लकारः कः, तत्र
लोट् लकारः महोदय।
हा
हा
आगच्छतु, आगच्छतु, वदतु, अपि तदनन्तरं ददानि इति एकवचने उत्तमपुरुषे, समीचीनं। हा बहूनि वस्तूनि आवश्यकानि सन्ति, तत्र वदति सः, हा बहूनि वस्तूनि इति, हा तत्र किं भवति इदानीं सङ्ख्या इति दृष्टवन्तः, तत्र पुल्लिङ्गे द्वौ इति भवति, तत्र द्रोण्यौ इति द्वे इति अस्ति, किमर्थं द्रोणी इति स्त्रीलिङ्गे अस्ति, हा इदानीं तदनन्तरं स्थाल्यः इति अस्ति, तिस्रः, किमर्थं तिस्रः, स्थाली इति, हा स्थालिका अथवा स्थाली इति अस्ति, हा स्थाली स्त्रीलिङ्गे अस्ति। तदनन्तरं षट्, तत्र तु षट् चषकाः, तदनन्तरं किञ्चित् विरमति, हा बहु किमपि अस्ति खलु तत्र वक्तव्यं, हा विरामम् आवश्यकमस्ति, हा अस्तु। तदनन्तरं भवान् वदन् भवतु, आदौ अहम् अपेक्षितां वस्तुसूचीं लिखामि, तत्र वस्तुसूचीम् इत्युक्ते किम्, अपेक्षितां वस्तुसूचीं लिखामि, हा ततः सर्वाणि वस्तूनि निष्कास्य दास्यामि, अस्तु, सर्वाणि वस्तूनि निष्कास्य दास्यामि, वस्तुसूची इत्युक्ते आर्टिकल्, यानि वस्तूनि आवश्यकानि
अपेक्षितानि,
अपेक्षितानि, हा अपेक्षितानि, तस्य सूची, तस्य यथा वयं दृष्टवन्तः खलु तत्र अनुक्रमणिका इति, तादृश लिस्ट्, तादृश सः कृतवान्।
निष्कास्य इत्युक्ते किं महोदय?
तत्र निष्कास्य इति इति भवति, अत्र तत्र त्यजतु अपि अस्ति, रिमूव् इति, हा तत्र, हा एतत् त्यजतु, एतत् निष्कासयतु, तदपि वदामः, एतत् इदानीं मास्तु इति वदामः, किन्तु अत्र किम् अस्ति, तस्मिन् स्थाने सर्वाणि वस्तूनि तेषां स्थाने अस्ति खलु, तत्र ततः निष्कास्य, रिमूविङ्ग् फ्रम् देर् इति अर्थे, रिमूव् इति अत्र, निष्कास्य दास्यामि, अस्तु अस्तु, तर्हि लिखतु, दशचमसाः चतस्रः द्रव्यः, तत्र द्रव्यः चतस्रः इत्युक्ते द्रव्यः किं भवति, लिङ्गं किं, दर्वी स्त्रीलिङ्गे अस्ति, हा द्वौ अवकरः कण्डोलौ दश अल्पाहारस्थाल्यः इति, अस्तु। तदनन्तरम् अत्र व्यञ्जनादिनिर्माणाय पात्राणि, क्षम्यताम्, अन्नव्यञ्जनादिनिर्माणाय पात्राणि, तानि मध्यम आकाराणि चत्वारि ददातु, बृहत् मास्तु लघु मास्तु, मध्यम आकाराणि पात्राणि चत्वारि ददातु इति, चत्वारि किमर्थं,
पात्राणि,
पात्राणि नपुंसकलिङ्गे अस्ति इति, हा चषकाः सन्ति किम्, आं सन्ति, हा कति ददानि, इदानीं पश्यतु तत्र लोट्लकर उत्तमपुरुष कुत्र भवति इति प्रश्नः आसीत् खलु, कति ददानि, हा 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 सत्यं, हा इदानीं चतुरः ददातु, चतुरः किमर्थं,
चतुरः चषकः
चषकाः इति
चषकाः
परन्तु महोदय चतुरः चत्वारः ददातु इति सम्भवः
किं भगिनि
इदानीं चतुरः ददातु इति वदति परन्तु चत्वारः ददातु इति सम्यक् वा न महोदय चषकः चतुरः अर्थं किं महोदय
तत्र तत्र किमस्ति भगिनि इदानीम् एतद् वयं न कुर्मः किन्तु तत्र चतुरः इति प्रायशः तत्र किम् अस्ति चमसा चषकाः अस्ति तत्र तत्र वाक्यं किं भवति ददातु इति वद वक्तुमिच्छामः तत्र चषकः अस्ति किं वदामः ददातु इति
ददातु चत्वारः चषकः ददातु
न चषकः अस्ति इदानीं चषकः ददातु ददातु पूर्वं किं भवति चषकः ददातु अथवा अन्यत् किं भवति ददातु क्रियापदमस्ति भवति न चत्वारः त्यजतु केवलम् एकः चषकः अस्ति इति चिन्तयामः भवति भवति ददातु तत्र चषकः इति रूपं वा अथवा अन्यत् किमपि
चषकं ददातु
चषकम् इति कर्मपदं अतः एव अहं तत्र चतुरः इति द्वितीयविभक्तिरूपम् अस्ति अत्र
चत्वारः चतुरः
अस्तु इदानीं किन्तु इदानीं मास्तु प्रश्नः समीचीनः किन्तु इदानीं मास्तु अस्तु पुनः अन्ये कति आवश्यकाः इति मम पत्नी अनन्तरं वदिष्यति अस्तु अग्रे सद्यो विवाहितः भवान् इति भाति इत्युक्ते
सद्य एव रीसेंटली मैरिड इति
भाति विवाहितः भवान् इति भाति आम् आम् किन्तु कथं ज्ञातं भवता तत्र सद्यः इत्युक्ते इदानीमेव सद्यः किं
लुक्स् लैक्
भाति इति भाति इट् अपियर्स् इति यदि किमपि पश्यामः ओ तद् मम पुस्तकम् इति भाति अस्तु अस्तु न एतद् भवतः पुस्तकं किन्तु मम पुस्तकम् इति भाति इति तादृश इट् अपियर्स् इट् लुक्स् लैक् इति किन्तु कथं किन्तु कथं ज्ञातं भवता एवं पाकशाला सम्बद्धानि सर्वाणि वस्तूनि सद्यो विवाहितः खलु क्रीणाति अस्तु सर्वे अवगच्छति वा एतद् अस्तु एवं वा अस्तु इदानीं कियत् देयम् इति त्वरितं वदतु अत्यावश्यकानि बहूनि कार्याणि कर्तव्यानि सन्ति तत्र त्वरितं वदतु इत्युक्ते शीघ्रतया वदतु कियत् देयं रूपम् अग्रे पश्यामः तत्र लकारः अस्ति किन्तु ध्येयं कियत् ध्येयम् इति लकारः नास्ति क्षम्यतां किन्तु रूपम् अग्रे पश्यामः कियत् ध्येयम् इति त्वरितं वदतु तत्र अत्यावश्यकानि बहूनि कार्याणि कर्तव्यानि सन्ति तत्र विशेषणविशेषभावः अस्ति तत्र विशेष्यं किं विशेषणं किं
कर्तव्यानि विशेष्यं सोरि बहूनि कर्तव्यानि कार्याणि
बहूनि कार्याणि
बहूनि
विशेष्यं किम् अस्ति
अत्यावश्यकानि अपि बहूनि कार्याणि
कार्याणि विशेष्यम् अत्यावश्यकानि
विशेष्यं किम् अस्ति
कार्याणि
विशेष्यम् अस्ति अन्यत् सर्वं विशेषणमस्ति समीचीनं अस्तु अग्रे तत्र अस्तु सङ्कलय्य वदामि सङ्कलनम् इत्युक्ते सर्वम् आहत्य किं भवति इति एडेड् सर्वम् आहत्य रूप्यकाणां 300 अभवत् मया एतावन्ति वस्तूनि क्रीतानि
त्रिशतं महोदय त्रिशति एव
त्रिशति एव अस्ति त्रिशति इति अस्ति अत्र पुस्तके त्रिशति इति अस्ति त्रिशति एव समीचीनं त्रिशति इति प्रसिद्धः अस्ति खलु
त्रिशति
त्रिशति देवी त्रिशति
ललिता त्रिश
हा हा त्रिशति इति प्रसिद्धः एव अस्ति
त्रिलिङ्ग
त्रिशति रूप्यकाणं मया एतावन्ति वस्तूनि क्रीतानि किञ्चित् मूल्यं न्यूनं न करिष्यति किञ्चित् न्यूनं करोतु इति सः वदति ग्राहकः आपणिकः वदति अद्यत्वे सर्वाणि वस्तूनि महार्घाणि मिलन्ति महार्घाणि इत्युक्ते महार्घाणि कास्ट्लि
महार्घाणि
महार्घः इत्युक्ते कास्ट्लि महार्घः बहुमूल्यः किन्तु अत्र नपुंसकलिङ्गे अस्ति इति कृत्वा महार्घाणि इति सर्वाणि वस्तूनि महार्घाणि मिलन्ति अतः
अत्र महोदय अत्र किञ्चित् मूल्यं न्यूनं न करिष्यसि इति भवेत् किल करिष्यसि इति करिष्यति इति अस्ति
हा सत्यं सत्यं करिष्यसि हा न करिष्यसि
अत्र मया
हा हा भवान् अपि
भवान्
भवान् भवान् इति अस्ति सत्यं सत्यं हा सत् सत्यं समीचीनं हा हा महार्घाणि मिलन्ति अतः व्यवसाये बहुलाभः नास्ति भवान् वदति चेत् 5 रूप्यकाणि न्यूनीकृत्य ददातु इति अस्तु 5 रूप्यकैः किं भवति किञ्चित् भूयः न्यूनीकरोतु स्वीकरोतु किञ्चित् भूयः न्यूनीकरोति इत्युक्ते
किञ्चित्
अधिकम्
अधिकं
भूयः
भूयो भूयो नमा भूय अधिकम्
अधिकम् अधिकं मोर् 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 न्यूनीकरोतु डिक्रीस् मोर् इति स्वीकरोतु न महोदय एवं न करोतु भवान् हा तत्र ग्राहकः सन्तुष्टः नास्ति इति आपणिकः पश्यति खलु आपणिकः वदति न महोदय एवं न करोतु भवान् उच्चपदे आसीनः कश्चन अधिकारी वर्तते इति जानामि तर्हि किमर्थम् एवम् आचरति किमर्थम् एतादृशं वदति वाक्यानि वदति इति हा अवगच्छन्ति वा तत्र सर्वे अस्तु अस्तु हा उच्चपदे इत्युक्ते हा टाप् पोस्ट् आसीनः अधिकारी हा सत्यम् उच्चपदे आसीनः अस्मि इति यद् भवता उक्तं तत्तु सत्यं किन्तु भवान् न जानाति वा डोण्ट् यु नो देट् इति हा ना हि महोदय तथा किमपि न जानामि भवान् एव वदतु हा यु ओन्लि टेल् मी इति हा अस्तु हा तर्हि शृणोतु भूत्यै न प्रमदितव्यम् धनसङ्ग्रहे अवहेलनं न युज्यते तत्र अवहेलनम् इत्युक्ते डिस्रेस्पेक्ट् इति भवति धनसङ्ग्रहे अवहेलनं न युज्यते डिस्रेस्पेक्ट् न भवतु अस्मिन् विषये अतः सङ्ग्रहे इति तत्र सप्तमीविभक्तिरूपम् अस्ति अपि च एतदेव अन्तिमबिन्दुः अस्ति तत्र भूत्यै न प्रमदितव्यम्। तत्र भूति इति स्त्रीलिङ्गपदमस्ति बेल्ट् इति, तत्र प्रमदितव्यम् इति केनाट् बि नेग्लेक्टेड् अस्ति इति, तत्र प्रमदति इति क्रियापदमस्ति। तत्र किं भवति इत्युक्ते तत्र दुष्यति ईष्यति इति तादृशरूपाणि सन्ति खलु, तत्र किं भवति चतुर्थीविभक्तिरूपस्य आवश्यकता अस्ति। असूयति, ईर्ष्यति, क्रुध्यति, कस्मै क्रुध्यति, कस्मै असूयति इति, तत्रापि कस्मै प्रमदति, अतः भूत्यै प्रमदति, किन्तु तद् न करणीयम् इति कृत्वा भूत्यै न। सो वेल्त् केनाट् बि नेग्लेक्टेड् इति तादृशरूपं किमपि अस्ति अत्र, भूत्यै न प्रमदितव्यम् इति। तत्र केवलं व्याकरणम् एव वदामि, तत्र अन्य कोऽपि यदि कथायाः अन्तिमबिन्दु किम् अस्ति इति प्रायशः अन्या चिन्ता अपि तत्र भवितुमर्हति। किं चिन्तनम् अत्र? धनसङ्ग्रहे अवहेलनं न युज्यते, भूत्यै न प्रमदितव्यं, प्रमदितव्यं नेग्लेक्ट्, भूतिः इति विभूतिः इति यद् देवस्य विभूतिः अट्रिब्यूट्स् इति यद् तत् तदेव बल्ट् इति अत्र। सत्यं सत्यम्, अतः एव मम मनसि सम्यक्तया अवगमनं नास्ति सः किं वक्तुम् इष्टवान् इति। अस्तु, किन्तु
बिकास् मनी इस् देयर् डजन्ट् मीन् वी शुड् वेस्ट् इट्।
तादृश प्रायशः अस्ति, सत्यं भगिनि, अस्तु अस्तु, समीचीनम्, अस्तु। तत्र लघुकथा एव आसीत् किन्तु सङ्ख्या आगतम् इति कृत्वा अहम् एतत् तत्र स्थापितवान्। अस्तु अस्तु, समयः जातः, विरमाम, अग्रिमवर्गे मिलामः, अग्रिमसप्ताहे। धन्यवादः सर्वेभ्यो, नमस्कारः। हरि ओं महोदय, नमस्कारः, नमस्कारः।